एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सांविधानिक परिषदा प्रधान न्यायाधीश पदे प्रकाशमान सिंह राउत इत्यमम् नियोक्तुम् परामृष्टमस्ति बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्यसायम् उपविष्टेन सांविधानिक परिषदः उपवेशेन सर्वोच्च न्यायालयस्य वरिष्ठ न्यायाधीशम् प्रकाशमान सिंह राउत इत्यमम् प्रधान न्यायाधीश पदे नियोक्तुम् परामृष्टमस्ति उपवेश्य प्रधानमन्त्री केपी शर्मा ओली परिषद सदस्याः प्रधान न्यायाधीशः विश्वम्भर प्रसाद श्रेष्ठः सभामुख देवराज घिमिरे राष्ट्रिय सभायाः अध्यक्ष नारायण प्रसाद दाहालः उपसभामुख इन्दिरा राणा प्रमुख प्रतिपक्षी दलस्य नेता पुष्पकमल दाहाल प्रचण्डश्च सहभागिनः आसन् प्रधानमन्त्री केपी शर्मा ओली संयुक्त राष्ट्र संघस्य 79तम्यां महासभायां भागग्रहणस्य क्रमे आत्मना नेपालस्य प्रतिष्ठायाः प्रतिकूलनत्वेन कथंविदमपि कार्यं न करिष्यते इति प्रतिबद्धतां व्यनक्ति राष्ट्रसंघस्य महासभायां नेपालस्य पक्षता उत्थापयिष्यमाणान् विषयान् ह्य प्रतिनिधिसभायां विज्ञापयन् प्रधानमन्त्री ओली राष्ट्रसंघस्य वडापत्रानुसारेण अन्येषाम् आन्तरविषयेषु हस्तक्षेपो न विधीयते अन्येषाम् हस्तक्षेपोऽपि न स्वीकरिष्यते इति च नेपालस्य नीतेर्विषयम् समस्पष्टयत् प्रधानमन्त्री ओली राष्ट्रसंघस्य महासभायाः माध्यमेन नेपालस्य नीतेः दृष्टिकोणस्य समस्यानाम् उपलब्धीनां च विषयान् विश्वस्मै आत्मना ज्ञापयिष्यते इति असूचयत् प्रधानमन्त्री ओली नेपालस्य संविधानस्य लोकतान्त्रिक मान्यतायाः सार्वभौमसत्ता सम्पन्न स्वतन्त्र राष्ट्रस्य परिचयस्य न्यायोचित राष्ट्रिय हितस्य अन्तर्राष्ट्रिय प्रतिबद्धतायाश्च विषयाः महासभायां स्थापयिष्यन्ते इति स्पष्टीकृतवान् प्रधानमन्त्री ओली महासभायां मानवजातेः पृथिव्याः सुरक्षायाः हिमालयानां समुद्रस्य च विषयेषु नेपालस्य दृष्टिकोणः प्रस्तोष्यते हिमालयाः द्रवीभूय समुद्रस्य जलस्तरस्य वर्धनात् विश्वस्मिन् एव प्रभावः जायमानोऽस्तीत्यत्र विश्वसमुदायः सावधानी करिष्यते चेति अवोचत् प्रधानमन्त्री ओली अमेरिकादेशे विद्यमानसमये न्यूयॉर्कवर्तिनी कोलम्बिया विश्वविद्यालये हावर्ड विश्वविद्यालये च सम्बोधनं कृत्वा लोकतान्त्रिक प्रतिस्पर्धायाः प्रणाल्याः विषये प्रागिक दृष्टिकोणः उपस्थापयिष्यते चेति स्पष्टीकृतवान् तदवसरे प्रधानमन्त्री ओली सम्प्रत्येव दुरापन्नाभ्यः प्राकृतिक विपद्भ्यः आहतानां जनानां स्वास्थ्योपचारस्य दायित्वं सर्वकारेण निरूह्यते चेति विषयेऽपि सभायां विज्ञापितवान् आसीत् प्रतिनिधिसभाया ह्यस्तनोपवेशे सहकारी संस्थानां वित्तदुरूपयोगस्य सम्बन्धे संघटितया संसदीयानुसन्धान विशेष समित्या प्रतिवेदनं प्रस्तुतमस्ति समितेः सभापतिः सूर्यबहादुर थापा खेत्री सहकारी संस्थानां वित्तापचलनस्य दुरूपयोगस्य च सम्बन्धे संघटितायाः संसदीयानुसन्धान विशेष समितेः एतद्विक्रमवर्षीयं प्रतिवेदनं प्रास्तोत् उपवेशे प्रतिवेदनस्य प्रस्तुतेः पश्चात् सभामुख देवराज घिमिरे प्रतिवेदनस्य आवश्यक कार्यार्थं सर्वकारं प्रेषयितुं संघीय संसद सचिवालयं निर्दिष्टवान् आसीत् अत्रान्तरे सहकारी संस्थानां वित्तापचलन दुरूपयोग सम्बन्धे संघटितया समित्या गोर्खा मीडिया नेटवर्क प्राली संस्थायाः तात्कालिक प्रबन्ध निर्देशकेन रवि लामिछाने विधेयन सहितान् चतुरः जनान् प्रचलित विधेयनुसारेण दण्डयितुं परामृष्टं वर्तते एवमेव समित्या सहकारी संस्थायाः वित्तापचलने संलग्नो भूत्वा सम्प्रति पलायितं गीतेन्द्रबाबु राई इत्यनेन सहितान् जनान् शीघ्रम् अन्विष्य वैधानिक दण्डनस्य परिदवानेतुं सर्वकारः निर्दिष्टो वर्तते समित्या निर्मितस्य प्रतिवेदनस्य अनुसारेण पलायितेषु जनेषु राई इत्यनेन सहिताः थानबहादुर बुढा मगर दिनेश रोका सागर केसी तस्मिन् खातुन भूपेन्द्र राई च वर्तन्ते संघीय संसदः द्वयोः सदनयोः सञ्चल्यमानाधिवेशनं गतरात्रौ द्वादशवादनात् समाप्तमस्ति प्रतिनिधिसभायाः उपवेशे सभामुख देवराज घिमिरे राष्ट्रिय सभायाः उपवेशे अध्यक्ष नारायण प्रसाद दाहालश्च गतरात्रौ अधिवेशनस्य समाप्त्यर्थं राष्ट्रपति कार्यालयात् प्राप्तं पत्रम् अश्रावयताम् तत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ राष्ट्रिय सूचना आयोगस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तोत उपवेशे उद्योग वाणिज्य श्रमोपभोक्तृहित समितेः सदस्या सीता मिजार समितेः एतद्विक्रम वर्षीयं वार्षिक प्रतिवेदनं प्रस्तुतवती। उपवेशे सभामुखा देवराज घिमिरे वर्तमाने चतुर्थे अधिवेशने विहितानि कार्याणि सदनं विज्ञापितवान् आसीत्। राष्ट्रिय सभाया ह्यस्तनोपवेशेन सप्तसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीय सार्वजनिक सेवा प्रसारण विधेयके प्रतिनिधिसभाया विहिते संशोधने सहमति धरणीयेति प्रस्ताव सर्वसम्मत्या स्वीकृतो वर्तते। प्रस्तावोऽसौ संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरूङ इत्यनेन प्रस्तुतः आसीत्। तत्पूर्वम् उपवेशे प्रधानमन्त्रिणा केपी शर्मा ओलिनः पक्षतः संचार मन्त्री गुरूङ मुस्लिमायोगस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतवान्। वृष्टेः समृद्धिश्च देवस्य देवराजेन्द्रस्य पूजाराधन पूर्वकम् अद्य परम्परागतम् इन्द्रयात्रा पर्व आयोज्यमानम् वर्तते। नेपाले लिच्छविकालात् प्रचलितम् पर्वेदम् काष्ठमण्डप भक्तपुर पाटन धुलीखेल दोलखा प्रभृति स्थलेषु आयोज्यते। अद्यैव देवराजेन्द्रस्य वाहनस्य ऐरावत हस्तिनः प्रतीकरूपम् किषिद्योः नृत्यमपि प्रदर्श्यते। इन्द्रयात्रायाः अवधौ दशावतार देवी भद्रकाली प्रभृति नृत्यान् अपि प्रदर्श्यन्ते। अस्य पर्वणा उपलक्ष्ये काष्ठमण्डप उपत्यकायां नेपाल सर्वकारेण अद्य सार्वजनिकावकाशः प्रदत्तो वर्तते। आश्विन संक्रान्तौ अद्यैव यानानि यन्त्रोपकरणानि विश्वकर्मा दिवसञ्च प्रपूज्य विश्वकर्मा दिवसश्च समायोज्यमानो वर्तते। भगवान विश्वकर्मा देवानाम शिल्पी स्थपति अभियन्ता च अस्तीति धार्मिकी मान्यता वर्तते। अतएव आश्विन मासस्य प्रथम दिवस वास्तुविदः स्थापत्यज्ञस्य शिल्पीनां च दिवसत्वेन मन्यते। दिनेऽस्मिन् यन्त्रोपकरण चालकाः वाद्यवादन पुरस्सरं विश्वकर्माणं पूजयन्ति। येन यानादयः दुर्घटिता न भवन्तु इति प्रकाम्यते। शिल्पिभिः प्रयुक्तेषु विभिन्नोपकरणेषु प्रपूजितेषु सत्सु इमानि चिराय सबलानि भविष्यन्ति। कार्यकाले विकृतानि न जायन्ते। सफल कार्यं च सम्पद्यते इति च विश्वस्यते। द्वापरयुगे भगवान् श्रीकृष्णः राक्षसैः दुःखितः तदनु विश्वकर्मणा समुद्रस्य मध्यभागे द्वारका नगरीं निर्माय भगवान् गोपायित इत्यतः विश्वकर्माणं सफलवास्तुविदं मत्वा ततः तस्य पूजन परम्परा प्रारब्धेति शास्त्रेषु उल्लिखितं वर्तते। कोशी प्रदेशस्य मुख्यमन्त्री हिक्मत कुमार कार्की स्वविश्वासस्य मतं गृहीष्यति। नेकपा माओवादी केन्द्रस्य समर्थनेन मुख्यमन्त्री पदे नियुक्तः कार्की माओवादी केन्द्रेण प्रदत्तस्य विश्वासस्य मतस्य प्रत्यावर्तनस्य पश्चात् द्वितीयवारं विश्वासस्य मतं ग्रहीतुम् उद्यतो वर्तते। सत्ता समीकरणस्य परिवर्तनेन सहैव श्रावणस्य एकादशे दिवसे सर्वकारात् बहिर्भूतेन माओवादी केन्द्रेण भाद्रमासस्य चतुर्दशे दिवसे समर्थनं प्रत्यावर्तितम् आसीत्। कोशी प्रदेशे नेपाली कांग्रेस दलस्य समर्थनेन सम्प्रति नेकपा एमाले दलेन सर्वकारस्य नेतृत्वं विहितं वर्तते। उपप्रधान अर्थमन्त्री विष्णुप्रसाद पौडेलः निवेशनस्य प्रत्यावर्तनाय सार्थक प्रयासं विधातुं कर्मचारी संचय कोषं निर्दिशति। कोषस्य 63 वार्षिकोत्सवस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे उपप्रधानार्थमन्त्री पौडेल निवेशनं कृत्वा सन्तोषेण स्थितेः अपेक्षया सूक्ष्मं निरीक्ष्य कोषस्य हितं प्रभावितं न भवतु इत्यत्र सावधानताम् अवलम्बितुं बलं प्रादात्। तदवसरे अर्थमन्त्री पौडेल प्रतिफलस्य सुनिश्चयनत्वेन निवेशनं कर्तव्यमित्यत्र बलं प्रदत्त। निवेशस्य परिधिं विस्तार्य अग्रे वर्धनाय बलं प्रादात् इति समाचाराः।